अथ चतुर्थोऽध्यायः श्रवणकीर्तनमननानाम् श्रेष्ठत्वम् मुनयवूचुः मननम् कीदृशम् ब्रह्मन् श्रवणम् चापि कीदृशम् कीर्तनम् वा कथम् तस्य कीर्तयेदद्यथा यथम् ब्रह्मोवाच पूजा जपेश गुणरूपविलासनाम्नाम् युक्तिप्रियेण मनसा परिशोधनम् यत् तत्सन्ततम् मननमीश्वरदृष्टिलभ्यम् सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् गीतात्मना श्रुतिपदेन च भाषया वा शम्भुप्रतापगुणरूपविलासनाम्नाम् वाचा स्फुटम् तु रसवत्स्तवनम् यदस्य तत्कीर्तनम् भवति साधनमत्र मध्यम् येनापि केन करणेन च शब्दपुञ्जम् यत्र क्वचित् शिवपरम् श्रवणेन्द्रियेण श्रीकेलिव दृढतरम् प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् सत्सङ्गमेन भवति श्रवणम् पुरस्तात् सङ्कीर्तनम् पशुपतेरतदृढम् स्यात् सर्वोत्तमम् भवति तन्मननम् ददन्ते सर्वम् हि सम्भवति शङ्करदृष्टिपाते सूत उवाच अस्मिन् साधनमाहात्म्ये पुरावृत्तम् मुनीश्वराः युष्पदर्थम् प्रवक्ष्यामि शृणुध्वम् अवधानतः पुरा मम गुरुर्व्यासः पराशरमुने सुतः तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे गच्छन्यदृच्छया तत्र विमानेनार्करोचिषा सनत्कुमारो भगवान् तदर्श मम देशिकम् ध्यानारूढ प्रबुद्धोऽसौ तदर्श तमजात्मजम् प्रणिपत्याः सम्भ्रान्तः परम् कौतूहलम् मुनिः दत्त्वार्घ्यम् अस्मै प्रददौ देवयोग्यम् च विष्टरम् प्रसन्नः प्राहतम् प्रह्वम् प्रभुर्गम्भीरया गिरा सनत्कुमार उवाच सत्यम् वस्तु मुने दद्भ्याः साक्षात्करणगोचरः स शिवोऽथा सहायोऽत्र तपश्चरसि किम् कृते एवमुक्तः कुमारेण प्रोवाच स्वाशयम् मुनिः धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः बहुधा स्थापिता लोके मया त्वत्कृपया तथा एवम् भूतस्य मेऽप्येवम् गुरुभूतस्य सर्वदः मुक्तिसाधरकम् ज्ञानम् नोदेति परमाद्भुतम् तपश्चरामि मुक्त्यर्थम् न जाने तत्र कारणम् इत्थम् कुमारो भगवान् व्यासेन मुनिना स्थितः समर्थः प्राह विप्रेन्द्रा निश्चयम् मुक्तिकारणम् श्रवणम् कीर्तनम् शम्भोर्मननम् च महत्तरम् त्रयम् साधनमुक्तम् च विद्यते वेदसम्मतम् पुराहम् अधसम्भ्रान्तो शन्यसाधनसम्भ्रमः अचले मन्दरे शैले तपश्चरणमाचरम् शिवाज्ञया ततः प्राप्तो भगवान् नन्दिकेश्वरः तमे दयालुर्भगवान् सर्वसाक्षी गणेश्वरः उवाच मह्यम् सस्नेहम् मुक्तिसाधनमुत्तमम् श्रवणम् कीर्तनम् शम्भोर्मननम् वेदसम्मतम् त्रिकम् च साधनम् मुक्तो शिवेन मम भाषितम् श्रवणादित्रिकम् ब्रह्मन् कुरुष्वेति मुहुर्मुहुः एवमुक्त्वा ततो व्यासम् सानुगो विधिनन्दनः जगाम स्वविमानेन पदम् परमशोभनम् एवम् मुक्तम् समासेन पूर्ववृत्तान्तमुत्तमम् ऋषयवूचुः श्रवणादित्रयम् सूत मुक्त्युपायस्त्वयेरितः श्रवणादित्रिके शक्त किम् कृत्वा मुच्यते जनः अयत्नेनैव मुक्तिः स्यात् कर्मणा केन हेतुना इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनखण्डे चतुर्थोऽध्यायः ॐ